नमस्सर्वेभ्यः अद्य शिक्षा वर्गस्य एकादशः पाठः ऑगस्ट मासस्य अष्टादशः दिनाङ्कः प्रार्थनया आरम्भं कुर्मः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गतवर्गे व्याकरणांशेषु चर्त्वसन्धेः उदाहरणानि ज्ञातानि अभ्यासः अपि कृतः कः नियमः चर्त्वसन्धिः कदा भवति इति ज्ञातवन्तः काव्यांशेषु भगवद्गीता श्लोकानाम् अध्ययनं कृतवन्तः एवं प्रहेलिकाद्वयं ज्ञातवन्तः राज्ञसम्बोधनं किं स्यात् पूजायां किं पदं प्रोक्तम् इत्यादि अद्य चत्वसन्धेः अभ्यासान् कृत्वा अभ्यासं कृत्वा अग्रे अन्यमेकं सन्धिं जानीमः कः नियमः चत्वसन्धेः यत्र वर्गस्य तृतीयः वर्णः जश् वर्णः भवति तस्य कर्कषव्यञ्जनेषु परेषु कर्कषव्यञ्जनं नाम प्रतिवर्गं प्रथमः द्वितीयः वर्णः क ख च छ ट ठ तथ प फ ष ष स एतानि कर्कषव्यञ्जनानि इति उच्यन्ते एतेषु परेषु जश् वर्गस्य तृतीयवर्णस्य स्थाने प्रथमवर्णः आदेशः भवति तस्यैव वर्गस्य प्रथमः क च ट त प इत्येते वर्णाः आदेशाः भवन्ति एषः सन्धिः चर्त्वसन्धिः इति उच्यते अभ्यासं पश्यामः सन्धिं विभजत ये वक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु
नमस्ते महोदय दिस् इस् षट् सत्पति इट् इस् षड् प्लस् सत्पति
षड् प्लस् षट् सप्ततिः
षट् देन् उद् उत्पत्ति देट् इस् उद् प्लस् पतति इज् इक्वल् टु उत्पतति
उत्पतति
उद् प्लस् ददति ओके थेङ्क् यू
धन्यवादः सो षट्सप्ततिः इति संख्या सप्ततिः पञ्चाशत् षष्टिः सप्ततिः सेवेण्टि षट् सप्ततिः उत्पतति बौन्स् इत्यर्थे अपि प्रयुज्यते अथवा उड्डयते आकाशे उड्डयते इत्यर्थे अपि उत्पतति इति प्रयोगः अस्ति विमानम् उत्पतति सो टेक्स् आफ् इत्यर्थे महालक्ष्मी
नमस्ते ऋत्विक् प्रधानः ऋत्विग् प्लस् प्रधानः
ऋत्विग् प्लस् प्रधानः ऋत्विक् प्रधानः
अतत् पर्णम् पदद् पर्णम् प्लस् पर्णम्
पतद् पर्णम् पतत् पर्णम् धन्यवादः प्रधानः ऋत्विक् ऋत्विक् यः यज्ञं कारयति सः ऋत्विक् इति उच्यते तेषु प्रधानः मुख्यः ऋत्विक् प्रधानः पतत् पर्णम् तत्तु ज्ञायते एव यत् पर्णम् पतत् अस्ति तत् पतत् पर्णम् स्वामिनाथम् श्रूयते
तद् प्लस् ते
तद् प्लस् ते तत्ते इति
एतद् फलम् एतद् प्लस् फलम्
एतद् प्लस् फलम् एतत् फलम् तत् ते सर्वनामद्वयं प्रसङ्गं विना न ज्ञायते एतत् फलं सर्वैः ज्ञायते एव रामकृष्णराव महोदय
महद् कार्यम्
महद् कार्यम्
महद् कार्यम् तस्माद् करोति तस्मात् करोति
तस्माद् करोति तस्मात् करोति अर्थः ज्ञायेत अग्रिमः अभ्यासः सन्धिः कर्तव्यः यत्र विच्छेदः दत्तः तत्र सन्धिः कर्तव्यः वीरभद्रराव
Yeah, good morning. Can you hear me?
Shruyate. Vadatu.
Bhubrud plus patihi. Bhubrud patihi.
Bhubrud patihi.
Ud plus kananam. Utkananam.
Utkananam. Samyak. Bhubrud patihi. Bhubrud parvataha. पर्वतानां पतिः राजा पर्वतराजः इत्यर्थः अथवा भूभृत् इत्यस्य राजा इत्यर्थः अपि अस्ति सो राज्ञां राजा सार्वभौमः इत्यर्थेऽपि प्रयोक्तुं शक्यते उत्खननं भूमौ किमपि निक्षिप्तं तस्य उत्खननं क्रियते यथा किमपि पुरातनं पुरातनकालस्य वस्तूनि निधिः इत्यादीनाम् उत्खननं क्रियते सीता नारायण
नमस्ते भगिनि
नमस्ते
षट् कर्माणि
अस्ति
षट् कर्माणि तादृक् क्लिष्टं
सम्यक् षट् कर्माणि तादृक् तावत् कष्टमस्ति इति वदामः तथा तादृक् क्लिष्टम् पद्मनाभनयि
नमस्ते
अप्सु इति वस्तुतः पदस्य मध्ये सन्धिः अप्सु इति एकमेव पदम् अप्शब्दः जलम् इत्यर्थः नित्यं बहुवचनान्तः शब्दः आपः अपः अद्भिः इत्यादि तस्य सप्तमी बहुवचने अप्सु इति भवति जलम् इत्यर्थः जले इत्यर्थः भिषक्तुल्यः सो धन्यवादः भिषक् वैद्यः इत्यर्थः वैद्येन समानः चिकित्सादिकं यद्यपि वैद्यः न तथापि औषधं दातुम् अर्हति इत्यर्थे स्यात् अग्रे अन्ये केऽपि वक्तुमिच्छन्ति प्रश्नद्वयमस्ति तु शारदा गोपालन् न श्रूयते
नमस्ते
सुहृत् प्रेम सुहृत् प्रेम
युष्मात् समीपे
युष्मत् समीपे सम्यक् सो सुहृत् प्रेम मित्राणां विषये प्रीतिः इत्यर्थः युष्मत् समीपे भवतां समीपे इति अयं चर्त्वसन्धिः यत्र वर्गतृतीयस्य वर्गप्रथमः आदेशः भवति कर्कषव्यञ्जने परे अग्रिमः अस्माभिः अधीयमानः सन्धिः अनुनासिकसन्धिः अनुनासिकसन्धिः आदौ कानिचन वाक्यानि पश्यामः तत्र उदाहरणानि जानीमः षण्मुखः शिवस्य पुत्रः अस्ति षण्मुखः षड् मुखः षण्मुखः सो षण्मुखः इत्यस्ति तत्र णकारः पूर्वं डकारः आसीत् तस्य स्थाने णकारः भवति षण्मुखः सर्पः त्वङ्मोचनं करोति त्वङ्मोचनं त्वङ्मोचनं तत्र ङकारः पूर्वं गकारः आसीत् त्वग् मोचनं त्वङ्मोचनं त्वक् चर्म सो चर्मं मुञ्चति इत्यर्थः सो द मोल्टिङ्ग् गिविङ्ग् अप् आफ् इट् स्किन् इस् काल्ड् त्वङ्मोचनं सो यद् भवता उक्तं तन्न रोचते मह्यं तन्न तन्न तद् न इति स्थिते तन्न इति भवति जगन्नाथस्य मन्दिरं पुर्याम् अस्ति जगन्नाथः तत्र पूर्वं दकारः जगद्नाथः जगन्नाथः एतत् सर्वे जानन्ति जगन्नाथस्य मन्दिरं पुर्याम् अस्ति पुरीक्षेत्रे अस्ति इत्यर्थः दिङ्नागाः नाम दिग्गजाः दिङ्नागाः नकारः दिग्नागाः दिङ्नागाः दिग्गजाः एव दिङ्नागाः नागशब्दस्य गजः इत्यपि अर्थः अस्ति सर्पः इत्यपि अर्थः अस्ति अत्र तु गजः इत्यर्थे दिङ्नागाः अष्टदिग्गजाः सन्ति ते एव दिङ्नागाः इति उच्यन्ते बृहन्नगरम् एतत् सो बृहन्नगरं बृहद् नगरं बृहन्नगरम् अयम् अनुनासिकसन्धिः कः नियमः वर्गस्य तृतीयः भवति तस्य अनुनासिके परे अनुनासिकः नाम वर्गस्य पञ्चमे वर्णे परे ङ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ्ञ् स्थाने तस्यैव वर्गस्य पञ्चमः अनुनासिकः वर्णः आदेशः भवति. स एव अनुनासिकसन्धिः इति उच्यते. अत्र एतत् स्मारयामि, अनुनासिकः भिन्नः, अनुस्वारः भिन्नः, ज्ञायते किल. सो अनुस्वारः पृथक् वर्णः. सो द डाट् आन् द टाप् उपरि या बिन्दुः क्रियते सः अनुस्वारः इत्युच्यते. अनुनासिकः तु भिन्नः. सो अनुनासिकवर्णाः स्वरेषु अपि भवन्ति, व्यञ्जनेषु अपि भवन्ति. व्यञ्जनेषु एतानि पञ्चव्यञ्जनानि न, ञ, ण, न, म. सो एतानि व्यञ्जनानि नित्य अनुनासिकानि इति उच्यन्ते. सो दे आर् कम्पल्सरिलि नेसल्, सर्वदा अनुनासिकानि एव. अन्यानि य व ल एतानि त्रीणि व्यञ्जनानि अनुनासिकानि अपि भवन्ति निरनुनासिकानि अपि भवन्ति. सो सामान्यतः य व ल इति भवति. यदा अनुनासिकः भवति तदा तस्य सूचनार्थम् एषः वर्णः अनुनासिकः अस्ति इति बोधयितुम् उपरि चिह्नं क्रियते. एषः चिह्नः चन्द्रबिन्दुः इति उच्यते. सो चन्द्रबिन्दुः अनुनासिकं सूचयति, केवलबिन्दुः अनुस्वारं सूचयति. यत्र य व ल इति अनुनासिक यकार वकार लकाराः. सुङ्गाण्यणानाम एतेषां चन्द्रबिन्दुः नापेक्षते यतोहि एते सर्वदा अनुनासिकाः. सो य व ल अनुनासिकः अस्ति चेत् चन्द्रबिन्दुः क्रियते, नो चेत् चन्द्रबिन्दुः न क्रियते. एवमेव अ इति अस्ति. स्वराः अपि भवन्ति, स्वराः अपि केवलस्वराः भवन्ति, अनुनासिकाः स्वराः भवन्ति. अ इति यदि अनुनासिकः तदा चन्द्रबिन्दुः क्रियते, नो चेत् केवलम् अ. स्वरैः अपि चन्द्रबिन्दुः भवति. अ इ यत्र स्वरः अनुनासिकः इति कर्तुम् इष्यते तत्र स्वराणाम् उपरि अपि चन्द्रबिन्दुः भवति. यत्र यवलाः अनुनासिकाः तत्र चन्द्रबिन्दुः क्रियते. सर्वत्र यत्र यत्र एवं वक्ररेखां कृत्वा बिन्दुं स्थापयामः चन्द्रबिन्दुः इति कथ्यते, तत्र अयं वर्णः अनुनासिकः. नासिकायाः साहाय्येन उच्चारणं करणीयम् इत्यर्थः. अनुस्वारः तु पृथग् वर्णः. ओके, सो देर् आर् नो वेरैटीस् इन् अनुस्वार. स्पष्टम् अवगतमिति भावयामि, यतोहि पुनः पुनः पृच्छन्ति, अनेन व्याजेन वदामि इति चिन्तितम्. रेफस्य अनुनासिकः न भवति वा इति चेत् न भवति. रेफस्य अनुनासिकः भेदः नास्ति, या वा न तेषामेव अस्ति. सो चन्द्रबिन्दुः अनुनासिकः, केवलबिन्दुः अनुस्वारः. चन्द्रबिन्दुं विना अपि अनुनासिकानि भवन्ति. ङ ञ ण न म एतानि अनुनासिकानि. केऽपि प्रश्नाः सन्ति वा अत्र? अर्थे भेदः भवति वा इति चेत् न भवति. अयं तु केवलं वर्णस्य उच्चारणे एव भेदः, अर्थभेदः नास्ति. केवलम् इत्युक्ते अनुनासिकः वा अननुनासिकः वा, तेन अर्थभेदः न भवति. इट्स् अ प्योर्ली फोनेटिक् थिङ्ग्, नाट् अ सेमेण्टिक् थिङ्ग्. ए ओ एतेषामपि अनुनासिकः भवति वा? सर्वेषां स्वराणां भवति. सर्वेषां स्वराणाम् अनुनासिकप्रभेदः अस्ति. ए ओ ऐङ् औ सर्वेषां स्वराणाम् अनुनासिकप्रभेदः भवितुम् अर्हति यदि प्रयोगः अस्ति. एषु दिनेषु उच्चारणे स्वरेषु अनुनासिकः अननुनासिकः इत्यस्य भेदः न क्रियते अस्माभिः. पाणिनेः व्याकरणे अस्ति कुत्र स्वराः अनुनासिकाः भवन्ति इत्यादि. वेदेषु उच्चारणे भेदः भवति. लौकिकसंस्कृते स्वराणाम् उच्चारणे अनुनासिकस्य उपयोगः अस्माभिः न क्रियते. उदाहरणम् इति किमपि न, अस्माभिः न क्रियते. लौकिकसंस्कृते स्वराणाम् अनुनासिकत्वं नास्ति. यत्र कुत्रापि लेखितुं शक्नुमः तावदेव. व्याकरणे अस्ति, व्याकरणशास्त्रे कदाचित् भवति, वेदेषु उच्चारणस्य भेदः भवति. व्यञ्जनेषु अनुनासिकाः तु अस्माभिः उपयुज्यन्ते. ङान्या नाम एवं संयोगः, संलापः, संवादः इत्यादिषु अनुनासिकानां व्यञ्जनानाम् उपयोगः अस्माभिः क्रियते, अनुनासिकानां स्वराणाम् उपयोगः न क्रियते. अस्तु, अग्रे गच्छामः. अनुनासिकसन्धिः वर्गतृतीयस्य स्थाने वर्गपञ्चमः. एतत् सर्वदा स्मर्तव्यम्. चर्त्वसन्धिः अस्ति, जष्ट्वसन्धिः अस्ति, अनुनासिकसन्धिः अस्ति. ओके, सो बहु समानरीत्या भवति. यत्र वर्गस्य प्रथमः वर्णः आदेशः भवति सः चर्त्वसन्धिः. यत्र वर्गस्य तृतीयः वर्णः आदेशः भवति सः जष्ट्वसन्धिः. यत्र वर्गस्य पञ्चमः वर्णः आदेशः भवति सः अनुनासिकसन्धिः. चर्त्वसन्धिः कुत्र भवति? यदा अग्रे विद्यमानः वर्णः कर्कषव्यञ्जनं भवति तदा प्रथमवर्णः चर्त्वं भवति, प्रथमवर्णः आदेशः. सो अग्रे विद्यमानः वर्णः मृदुव्यञ्जनं भवति चेत् अथवा स्वरः भवति चेत् तृतीयः वर्णः भवति, सः जष्ट्वसन्धिः. अग्रे विद्यमानः अनुनासिकवर्णः भवति चेत् पञ्चमः वर्णः आदेशः भवति, सः अनुनासिकसन्धिः. इदानीम् एतत् स्मर्तव्यम्. अत्र वर्गपञ्चमः यः अस्ति एषः अनुनासिकसन्धेः नियमः. वस्तुतः व्याकरणशास्त्रे कथमस्ति, कस्यापि वर्गीयव्यञ्जनस्य अनुनासिके परे अनुनासिकः आदेशः इत्येव उच्यते. किन्तु सामान्यतः किं भवति? आदौ जष्ट्वसन्धिः भवति. जष्ट्वसन्धिः यतोहि एतानि अपि मृदुव्यञ्जनानि किल, अतः अन्यः कोऽपि वर्णः अस्ति चेत् आदौ जष्ट्वसन्धिः भवति, अनन्तरम् अनुनासिकसन्धिः भवति. उदाहरणं जगत् इति शब्दः अस्ति, जगत् प्लस् नाथः, अत्र नकारः मृदुव्यञ्जनम्, अतः आदौ जष्ट्वसन्धिः भवति, जगद् नाथः इति भवति. जष्ट्वसन्धेः अनन्तरम् अनुनासिकसन्धिः भवति, जगन्नाथः इति. सो पाणिनीयव्याकरणरीत्या इयमेव प्रक्रिया. सो अत्र मया वर्गस्य तृतीयस्य स्थाने वर्गपञ्चमः इति उक्तम्. सो दिस् इस् एन् इफेक्टिव् रूल्. द एक्चुअल् रूल् फार् अनुनासिकसन्धि डस् नाट् स्पेसिफै दट् इट् हेस् टु बि वर्गस्य तृतीयः. यत्किमपि वर्गीयव्यञ्जनं भवति चेत् अनुनासिकसन्धिः भवति, किन्तु अन्यः कोऽपि वर्णः अस्ति चेत् सर्वदा आदौ जष्ट्वं भवति. जष्ट्वं भवति चेत् वर्गस्य तृतीयः भवति, अनन्तरं तस्य स्थाने वर्गस्य पञ्चमः भवति. सो जगत् नाथः, सो आदौ जष्ट्वं भवति, जगद् नाथः, अनन्तरम् अनुनासिकसन्धिः भवति, जगन्नाथः. इदानीं जगन्नाथः इत्यस्य सन्धिविच्छेदः कर्तव्यः चेत् जगद् नाथः इत्यपि वक्तुं शक्यते, जगत् नाथः इत्यपि वक्तुं शक्यते. सो बोत् आर् एक्सेप्टेड्. अस्मिन् स्तरे यदा प्राथमिकस्तरे पठ्यते तदा जगत् नाथः जगन्नाथः इति वक्तुमपि शक्यते. वस्तुतः शिक्षापुस्तके तथैव अस्ति, शिक्षावर्गस्य पाठ्यपुस्तकेषु तथैव अस्ति. जगन्नाथः इत्यस्य छेदः जगत् नाथः इति भवति, तदपि युक्तं. किन्तु पठनस्तरे एव सम्यक् जानीमः चेत् अग्रे इतोपि सम्यक् व्याकरणं अध्येतुं शक्यते इत्यतः मया एवं प्रदर्श्यते, नो चेत् मनसि भ्रमः भवति, जगत् नाथः इत्यस्ति, तत्र किं कर्तव्यं, जष्ट्वं कर्तव्यं वा, अनुनासिकः कर्तव्यः वा इति भवति, यतोहि जगद्गुरुः, जगत् गुरुः इत्यस्ति चेत् जष्ट्वम् इति वदामः मृदुव्यञ्जनम्, तर्हि अत्र किमर्थं जष्ट्वं न भवति इति प्रश्नः भवति, जष्ट्वं भवति अनन्तरम् अनुनासिकः भवति, अतः मया स्पष्टं प्रदर्श्यते परीक्षादृष्ट्या लेखने उभयं लेखितुं शक्यम्, उभयं लेखितुम् अर्हन्ति, उभयं युक्तं, प्रक्रिया कथं भवति इति ज्ञातव्यं, सो जगन्नाथः जगत् नाथः एव, किन्तु आदौ जष्ट्वेन तकारस्य दकारः, ततः दकारस्य नकारः, एवमेव तत्र गीतायां प्रसिद्धः श्लोकः अस्ति, मन्मनाभव मद्भक्तो मद्याजी मां नमस्कुरु, सर्वत्र मत् इत्यस्ति, मम इत्यर्थः, सो मद्भक्तः, मत् भक्तः, मद्भक्तः जष्ट्वं, मद्याजी, मत् याजी मद्याजी, एवमेव मन्मनाः इत्यत्र मत् मनाः, आदौ मद् मनाः जष्ट्वं भवति, ततः मन्मनाः अनुनासिकसन्धिः भवति, मन्मनाः एषः अनुनासिकसन्धेः नियमः. इतोपि एकः अंशः अस्ति, आदौ किञ्चित् अभ्यासं कृत्वा अनन्तरं समंशं पश्यामि. केऽपि प्रश्नाः सन्ति वा एतावता? पश्यामः तर्हि अभ्यासं कुर्मः. सन्धिः योजनीयः ये वक्तुम् इच्छन्ति कृपया हस्तमुन्नयन्तु. निर्मला राजशेखर, अन्म्यूट् सर्.
वाङ्नियमः
प्रथमः वाङ्नियमः सम्यक्.
मद्निवास मन्निवास चतुर्थं
मन्निवासः चतुर्थम् विद्युत् नगरी
विद्युत् नगरी विद्युन्नगरी पुनः चतुर्थ.
सम्यक्, धन्यवादः. विद्युन्नगरी रामानुजम्.
नमस्ते. तस्माद् नागरिक, तस्मान् नागरिक, द सेकेण्ड् वन्. तद् मङ्गलं, तन्मङ्गलं, द थर्ड् वन्.
शोभा,
नमस्ते. एतद् प्लस् मध्ये, एतन्मध्ये द्वितीयम्,
एतन्मध्ये
जगद् प्लस् नाथः जगन्नाथः तृतीयम्. साम्राड् मनसि साम्राण् मनसि प्रथमम्
प्रथमं, धन्यवादः. साम्राण् मनसि. उषा,
नमस्ते. श्रूयते वा?
श्रूयते.
षड् मुखः षण्मुखः द्वितीय, त्वग् मोचनं त्वं मोचनम् प्रथम.
धन्यवादः.
धन्यवादः.
वीरभद्रः.
Yeah, I was trying to show.
Prashnah asti va?
Tan nayanam. Tat nayanam or tad nayanam number one. Jagan niyamakaha. Jagad plus niyamakaha number four.
Dhanyavaadah. वरुण विश्वनाथन
श्रूयते वा?
हा
अस्तु. मधुलिन् नमसि मधुलिन् नमति मधुलिड् नमति द्वितीयम्
सम्यक् मधुलिड् नमति.
यन् मण्डलम् यद् मण्डलम् तृतीयम्
सम्यक् धन्यवादः. यद् मण्डलम् रामकृष्णराव
सकृद् सकृद् नष्टं द्वितीयं
द्वितीयं सकृद् नष्टं सकृद् एकवारम् इत्यर्थः.
षट् मासः षण्मासः प्रथमम् अल इदु फोर्त् वन् षड् प्लस् मासः षण्मासः.
सम्यक् धन्यवादः. षड् मासाः षण्मासाः स्वामिनाथन्
रान् मन्दिरम् रान्
अत्र नकारः अस्ति तृतीयं राड् मन्दिरं. राड् इत्युक्ते राजा इत्यर्थः राज्ञः मन्दिरम्
द्विषन् मित्रं द्विषक् द्विषक् प्लस् मित्रं द्वितीयं
द्वितीयं भिषक् मित्रं सम्यक् भिषङ् मित्रम् महालक्ष्मी
जाग्रन् नागरिकः जाग्रद् सेकेण्ड् वन् द्वितीयं जाग्रत् नागरिकः फस्ट् वन्
जाग्रत् नागरिकः यथा मया उक्तम् उभयथापि लिख्यते अतः एव अत्र आदौ जष्ट्वं भवति अनन्तरम् अनुनासिकः जाग्रन् नागरिकः सो अन् अवेर् सिटिजन् केर्फुल् जाग्रति जागर्तीयः नागरिकः सः.
दिङ् मध्ये दिग् मध्ये फस्ट् वन्
दिग् मध्ये दिङ् मध्ये सम्यक् धन्यवादः. मधुलिड् नमति कः अर्थः इति केनचित् पृष्टं मधुलिड् मधुलिड् भ्रमरः इत्यर्थः अस्ति अथवा यः मधु लेढि मधु लेढि लेढि लिक्स् इत्यर्थः सः मधुलिट् इत्युच्यते भ्रमरः इत्यर्थे प्रयोगः भवति सामान्यतः. अग्रे वाक्येषु प्रयोगः प्रदर्शितः तत्र सन्धिच्छेदः कर्तव्यः. केऽपि वक्तुमिच्छन्ति
अविनाश वैद्य तन्नक्षत्रं बहु दूरे विद्यते तद नक्षत्रम तद सेकंड वन
तद नक्षत्रम तन्नक्षत्रम बहु दूरे विद्यते
वृक्षे षण नारिकेल फलानि सन्ति षड षड षट नारिकेल थर्ड वन फर्स्ट इट विल बिकम जस्ट स्वंदी इट विल बिकम षड नारिकल एंड देन इट विल बिकम षण नारिकेल फलानि
सम्यक षण नारिकेल फलानि धन्यवाद
पर्वतात् नद्यः प्रवहन्ति पर्वतात् गोस्तु पर्वतात्
पर्वतात् नद्यः आदौ जष्ट्वं ततः अनुनासिकः
रान् महीम् राट् तु राड् महीम्
तो राट महीम राड महीम राजा भूमिम पालयति इत्यर्थः
ऋत्विक मंत्रान ऋत्विक ऋद्विन ऋद्विक मंत्रान
तो ऋत्विक मंत्रान सत्य सम्यक धन्यवाद शारदा माता श्रूयते
मद् नाथः मद् निवासः मन्निवासः
अत्र श्री
श्री जगन् जगद् नाथः श्री जगद् नाथः थर्ड् वन्
सम्यक् धन्यवादः सो मन्नाथः श्रीजगन्नाथः मद्गुरु श्रीजगद्गुरुः मन्निवासस्तु वैकुण्ठः इति सर्वत्र भावयेत् इति चिन्तनीयम् यः मम नाथः सः एव जगन्नाथः विष्णुः मद्गुरुः जगद्गुरुः मन्निवासः वैकुण्ठः यत्र वसामि स एव वैकुण्ठः इति भावना भवेत् सम्यक् इदानीम् अनुनासिकसन्धेः उदाहरणानि ज्ञातानि ऋत्विग् इत्यस्य कः अर्थः यः यज्ञं कारयति सः ऋत्विक् इत्युच्यते यज्ञे याजकः सो अनुनासिकसन्धिः सामान्यतः विकल्पः इट् इस् एन् आप्शनल् सन्धि प्रत्यये परे नित्यः अन्यत्र विकल्पः इति नियमः यथा चिन्मयः इत्यस्ति प्रसिद्धः शब्दः तत्र चिद् मयः चिन्मयः मयत् इति प्रत्ययः तत्र अस्ति सो यत्र यत्र मय इति आगच्छति हिरण्मय चिन्मय इत्यादि तत्र सर्वत्र मयत् इति प्रत्ययः तद्रूपम् इत्युक्ते सम्पूर्णमपि चिदेव अन्यत् किमपि नास्ति इत्यर्थे चिन्मयशब्दः सः प्रत्ययः सो प्रत्यये चिन्मयः इत्येव रूपं सन्धिः नित्यं भवति तद् मात्रं तत्रापि मात्रच् इति प्रत्ययः अस्ति तन्मात्रं पञ्चतन्मात्राणि इति उच्यन्ते पञ्चभूतानि तथा पञ्चतन्मात्राणि इति तत्र मात्रच् इति प्रत्ययः सो यत्र यत्र प्रत्ययः भवति तत्र अनुनासिकसन्धिः नित्यः किन्तु अन्यत्र सर्वत्रापि विकल्पः सन्धिः सो तद् मम इत्यस्ति चेत् तन्मम सन्धिः क्रियते चेत् तन्मम इति भवति नो चेत् केवलं तद् मम इत्यपि वक्तुं शक्यते सो वाक् मूलम् यदि अनुनासिकसन्धिः भवति तर्हि वाङ्मूलं न भवति चेत् वाग्मूलम् उभयं शुद्धं न अनुनासिकसन्धिः न भवति चेत् वर्गस्य तृतीयः वर्णः एव भवति एतत्तु सर्वत्र सत्यं यथा वस्तुतः नियमानुगुणं षड् मुखः इत्युक्ते षण्मुखः षड्मुखः इति उभयथा भवेत्, किन्तु प्रयोगम् आश्रित्य एव व्यवहारः कर्तव्यः. कोऽपि षड्मुखः इति न वदति. षण्मुखः इत्येव प्रसिद्धं, विशिष्य यत्र कस्यचित् नाम भवति अथवा बहु प्रसिद्धः शब्दः जगन्नाथः, कोऽपि जगद्नाथः इति न वदति. सत्यमेव, व्याकरणरीत्या तत्र जगद्नाथः षड्मुखः इत्यादि भवति, किन्तु प्रयोगे षण्मुखः जगन्नाथः इत्येव प्रसिद्धं, तदपि स्मर्तव्यम्. व्याकरण शास्त्रदृष्ट्या पूर्वं यद्यद् दृष्टवन्तः, सर्वत्रापि अनुनासिकसन्धिः विकल्पेन भवति, कर्तुं शक्यते अथवा तद्विना केवलं तृतीयः वर्णः अपि भवितुम् अर्हति, किन्तु दृष्ट्वा प्रयोगः कर्तव्यः. सामान्यतः तद् शब्दः एतत् शब्दः अस्ति चेत् शक्यते उभयथ अपि, एतद् नास्ति एतन्नास्ति इति सन्धिः तु ज्ञातव्यः. यथा प्रयोगः अस्ति तथा कर्तव्यम्. अत्र एकः प्रश्नः अस्ति, प्रत्ययः नाम कः इति. तस्य कथनं क्लेशः एव, यतोहि व्याकरणशास्त्रे प्रत्ययः इति सम्यक्, सो इट् इस् अ टेक्निकल् टर्म्. सप्तविधाः प्रत्ययाः सन्ति. सुप् प्रत्ययाः ज्ञायन्ते इति भावयामि. सो रामः, रामौ, रामाः इत्यादि यत्र भवति सः सुप् प्रत्ययः इति. तिङ् प्रत्ययाः पठति, पठतः, पठन्ति इत्यादिषु. विकरणप्रत्ययाः अपि तत्र मध्ये भवन्ति. पठ अति, नृत् यति, नृत्यति, पठति इत्यादिषु मध्ये अ य, क्रीणाति, ना इति ये प्रत्ययाः, ते विकरणप्रत्ययाः इति उच्यन्ते. कृत् प्रत्ययाः सन्ति, ज्ञायन्ते कृतवान्, कर्तुं, कृत्वा इत्यादि. तद्धितप्रत्ययाः सन्ति, दशरथस्य पत्यं दाशरथिः, बुद्धिः अस्य अस्ति इति बुद्धिमान्, सो अपत्यार्थे अथवा मतुः प्रत्ययः इत्यादि. अनन्तरं स्त्रीप्रत्ययाः सन्ति, सो अजः, अजा, गौरः, गौरी इत्यादि स्त्रीप्रत्ययाः सन्ति. सनादिप्रत्ययाः सन्ति, कर्तुम् इच्छति, तस्य चिकीर्षा, चिकीर्षति इत्यादिषु सनादिप्रत्ययाः. तेषाम् एक्सास्टिव् लिस्ट् ज्ञातुं कष्टम्, यतोहि तद्धितप्रत्ययाः एव प्रायः पञ्चशतं, ददात् अबौट् 500 तद्धितप्रत्यय, मोर् देन् 120 कृत् प्रत्यय. अन्यप्रत्ययाः न्यूनाः, किन्तु कृत् प्रत्ययाः तद्धितप्रत्ययाः बहु अधिकाः. अतः के प्रत्ययाः इति तथा सरलतया ज्ञातुं न शक्यते. अत एव मया स्पष्टम् उक्तं, प्रसङ्गमाश्रित्य ज्ञातव्यम्. सो अत्र अनुनासिकसन्धौ प्रायः एतत् प्रत्ययद्वयं भवति, मय, मात, कदाचित् मतुप् प्रत्ययः भवेत्, अन्यप्रत्ययाः न सन्ति. सो अनुनासिकसन्धिः ज्ञातः इति भावयामि. अग्रे गच्छामः. अनुनासिकसन्धेः अभ्यासाः दीयन्ते. इदानीं काव्यांशेषु भगवद्गीता श्लोकानाम् अध्ययनं कुर्मः. अर्जुनः स्वजनान् दृष्ट्वा खिन्नः कृष्णं प्रति कथयति. दृष्ट्वे मम स्वजनं कृष्ण युयुत्सुं समुपस्थितं, कीदन्ति मम गात्राणि, मुखं च परिशुष्यति इत्यादि आरभ्य कथयति. ये वक्तुमिच्छन्ति ते हस्तमुन्नयन्ति. सामान्यतः केचन प्रयत्नं कुर्वन्ति, अन्येपि कुर्युः इति मम इच्छा. दोषाः भवेयुः, क्लेशः नास्ति. प्रारम्भिकस्तरे यदा श्लोकानाम् अन्वयरचनायां प्रयत्नः क्रियते तदा कदाचित् दोषाः भवन्ति किन्तु प्रयत्नः न क्रियते चेत् कदापि कौशलं न प्राप्यते दोषैः संस्कृते विशिष्य तदेव आदौ उच्यते संस्कृतभारत्याः सम्भाषणशिबिरं गच्छामः चेत् भीतिं विना सम्भाषणं कुर्वन्तु शुद्धं वा अशुद्धं वा क्लेशः नास्ति यतोहि प्रयत्नः न क्रियते चेत् ज्ञानं न लभ्यते अतः सर्वेपि एकस्य श्लोकस्य वा गृहे पूर्वमेव अभ्यासं कर्तुं सप्ताहस्य समयः तु लभ्यते किल एकस्य श्लोकस्य वदामि एका घण्टा अपेक्षते कदाचित् घण्टाद्वयमपि अपेक्षते अवगच्छामि यतोहि तथा सरलतया न भवति शब्दकोशः द्रष्टव्यः शब्दरूपं धातुरूपं किन्तु तेनैव महान् लाभः भवति ज्ञानं बहु सम्यक् वर्धते अस्तु इदानीं ये वक्तुम् इच्छन्ति अग्रिमसप्ताहे वा अन्येपि प्रयत्नं कुर्युः इति मम इच्छा इदानीं येपि सिद्धाः चेत् कृपया हस्तमुन्नयन्तु
नमस्ते भगिनि पदविभागः सन्धिः च न काङ्क्षे विजयं कृष्ण न च राज्यम् अनुस्वारसन्धिः सुखानि च किं पुनः अनुस्वारसन्धिः नः विसर्गसन्धिः राज्येन गोविन्द किं भोग किम् अनुस्वारसन्धिः भोगैः विसर्गसन्धिः जीवतेन वा
सम्यक्
सामान्यतः ऐ डिन्ट् राइट् एनीथिङ्ग् वाक्यविश्लेषण क्रियापदं न काङ्क्षे प्रथमा विभक्ति अहं किं सम्बोधन प्रथमा एक कृष्ण गोविन्द द्वितीया विभक्ति विजयं राज्यं सुखानि तृतीया विभक्ति राज्येन भोगैः जीवितेन अव्ययं न च वा आकाङ्क्षक्रमेण अन्वयरचना
नः किं नो राज्येन
अहं न जानामि अस्मभ्यं वा आवां वा अस्माभिः वा
अस्माकं वा अस्मभ्यं वा चतुर्थी वा षष्ठी वा इति उभयथापि वक्तुं शक्यते अत्र क्लेशः नास्ति
आकाङ्क्षा क्रमेण अन्वयरचना नकाङ्क्षे न इच्छामि कः नकाङ्क्षे अहं नकाङ्क्षे अर्जुनः कानि नकाङ्क्षे विजयं राज्यं सुखानि च नकाङ्क्षे केभ्यः किं प्रयोजनम्
किं प्रयोजनम् अस्ति इति अध्याहर्तव्यम् यत्र किम् अस्ति किं सिद्ध्यति इत्यादि अध्याहारः कर्तव्यः द्वितीयवाक्ये क्रियापदं नास्ति किं सिद्ध्यति किं प्रयोजनम् इत्यादि अध्याहारः कर्तव्यः
नः अस्मभ्यं किं प्रयोजनम् अहं किञ्चित् डौट् अस्ति शङ्कमस्ति किं वा ऐ थिङ्क् Not sure if Kim is the right thing to add.
No, tatra Kim siddhyati athava Kim prayojanam asti ityeva Kim prashnaha svikartavyaha. Kriyapadam tadeva Kim siddhyati इत्युक्ते न सिद्ध्यति. किं सिद्ध्यति इत्यस्य अत्र कः अर्थः? सो इन् दिस् काण्टेक्स्ट् सो किं प्रयोजनम् इत्युक्ते प्रयोजनं नास्ति अथवा किमपि न सिद्ध्यति इत्येव क्रिया. केन प्रयोजनं नास्ति अथवा केन किमपि न सिद्ध्यति? राज्येन किमपि न सिद्ध्यति, भोगैः किमपि न सिद्ध्यति, जीवितेन किमपि न सिद्ध्यति. तथैव अन्वयः वक्तव्यः. साक्षात् अन्वयः कष्टम्, यतोहि क्रियापदं नास्ति. सः राज्येन किम् इति पृच्छति चेत् कः अर्थः? राज्येन किमपि प्रयोजनं नास्ति इत्यर्थः. अतः तथैव अन्वयः वक्तुं शक्यते.
अस्तु, कैः किं प्रयोजनं? राज्येन, भोगैः, जीवितेन वा प्रयोजनं नास्ति? किं प्रयोजनम्?
सम्यक्
अन्वयः. हे कृष्ण, अहं विजयं, राज्यं, सुखानि च न काङ्क्षे. हे गोविन्द, अस्मभ्यं राज्येन राज्येन भोगैः जीवितेन किं प्रयोजनम् अस्ति?
किं प्रयोजनम् अस्ति? सम्यक्.
तात्पर्यार्थः, हे माधव, अहं सन्तोषं, जयं, राज्यम् अहं किम् अत्र पदं न जानामि.
देशं, भूमिं,
जयं, देशं, सन्तोषं च अहं न इच्छामि. हे गोपालम्, हे गोपाल, वयं देशेन सुखैः प्राणेन किं किं तात्पर्य प्रयोजनम् अत्र पदम्
अस्माकं देशेन सुखैः प्राणैः वा किं प्रयोजनम् अस्ति?
अस्तु, किं प्रयोजनम् अस्ति?
अर्थः सम्यक्, उत्तमं, सम्यक् प्रयत्नः कृतः.
व्याकरणांशाः न काङ्क्षे, काङ्क्षे इत्युक्ते आत्मनेपदे, आत्मनेपद इति आत्मनेपद लट्लकार. अहं किं दातु अहं न जानामि. अहं चिन्तयामि काङ्क्ष दातु. अस्तु, मध्यम उत्तमपुरुषः एकवचनं.
सम्यक्.
विजयं, राज्यम्, अकारान्त पुल्लिङ्गः, द्वितीया विभक्ति, एकवचनम्.
तत्र विजयः इति पुल्लिङ्गः, राज्यम् इति नपुंसकलिङ्गः.
ओ, राज्यं नपुंसकलिङ्ग. अस्तु, अकारान्त नपुंसकलिङ्ग, द्वितीया विभक्ति. सुखानि अकारान्त नपुंसकलिङ्ग बहुवचनम्,
द्वितीया विभक्तिः बहुवचनम्.
द्वितीया विभक्ति अस्ति. न च वा इति अव्ययानि. किं किं शब्द एकवचनं, किं शब्दः
अकारान्त,
किं शब्द नपुंसकलिङ्गः. अहं कः विभक्ति चिन्तयामि. प्रथमा, अस्तु, प्रथमा किं किं जानामि, प्रथमा, द्वितीया वा?
तदेव, तत्र का क्रिया इति. यदि किम् अस्ति, किं सिद्ध्यति, किं प्रयोजनम् इत्यादिवत्, किं प्रयोजनम् अस्ति, प्रयोजनम् अस्ति, तत्र प्रयोजनम् इति प्रथम. सो किं प्रयोजनं, तत्र प्रथम. किं जानामि, किं करोमि इत्यादि वदामः चेत् तत्र द्वितीया भवति.
अस्तु, धन्यवादः. नः दकारान्त पुंलिङ्गः, दकारान्त स्त्रीलिङ्गकः. अहं चिन्तयामि चतुर्थी विभक्ति,
युज्यते इट् मैट् बी बेटर् टु मेक् ए षष्टि. अस्माकं किं प्रयोजनम् इत्येव प्रश्नः भवति. चतुर्थी विभक्तिः कथञ्चित् साधयितुं शक्यते, बट् षष्ठी इस् मोर् नेचुरल्. सो अस्माकं राज्येन किं, भोगैः किम् इत्यादि. सो नः इति उभयमस्ति, चतुर्थी अस्मभ्यं नः, अस्माकं नः.
अस्तु, षष्ठी विभक्ति बहुवचनं. राज्येन जीवितेन अकारान्त राज्यम् इति नपुंसकलिङ्ग वा?
जीवितम् अपि नपुंसकलिङ्ग.
राज्येन जीवितेन नपुंसकलिङ्ग एकवचनं तृतीया विभक्ति. भोगैः इति अकारान्त पुल्लिङ्गः तृतीया विभक्ति बहुवचनम्.
कृष्ण गोविन्द.
ओ, कृष्ण गोविन्द इति अकारान्त पुल्लिङ्गः सम्बोधनप्रथम एकवचनम्.
सम्यक्, बहु उत्तमम्. उत्तमः,
धन्यवादः.
बहु सम्यक् उक्तम्. सो सामान्यतः एषः अंशः अन्वये सम्बोधनपदं प्रथमं भवति. सो हे कृष्ण, हे माधव, न काङ्क्षे, न इच्छामि. किं न इच्छामि? विजयं, जयं न इच्छामि. राज्यं, देशम् अथवा भूमिं न इच्छामि. सुखानि, भोगान् अथवा सन्तोषदायकानि वस्तूनि न इच्छामि इति एकं वाक्यम्. सो द्वितीयवाक्ये अध्याहारः कर्तव्यः. सो किम् इत्यस्ति, सो किं प्रयोजनम् अस्ति अथवा किं सिद्ध्यति इति अध्याहारः, क्रियायाः अध्याहारः कर्तव्यः. सो किं सिद्ध्यति, किं सिद्ध्यति इत्यस्य कः अर्थः? किमपि न सिद्ध्यति इत्यर्थः. सो केषां किमपि न सिद्ध्यति? नः, अस्माकं किमपि न सिद्ध्यति. केन किमपि न सिद्ध्यति? राज्येन, भूमेः आधिपत्येन, भोगैः, सुखैः, जीवितेन, प्राणैः वा किमपि न सिद्ध्यति इति अन्वयः. तत्र सिद्ध्यति इति क्रियापदस्य अध्याहारः क्रियते चेत् तत्र राज्येन, भोगैः, जीवितेन इति करणं भवति. केनचित् पृष्टम् अत्र तृतीयायाः कः अर्थः इति. करणम्, इट् इस् द इन्स्ट्रुमेण्ट् टु समथिङ्ग् हेपनिङ्ग्. सो राज्येन किमपि भवति, किं भवति? सन्तोषः भवति, सुखं भवति इत्यादि. किन्तु अर्जुनः वदति राज्येन किमपि न भवति. सो अयं वस्तुतः अत्र प्रश्नः, राज्येन किं भवति इति अर्जुनः प्रश्नं करोति. किन्तु प्रश्नस्य कः अर्थः? किमपि न भवति. सो वाट् आफ् अयम्, एतादृशः प्रयोगः सर्वासु भाषासु भवति. राज्यमस्ति चेत् किम्? सो वाट् इफ् ऐ हेव् एव्रिथिङ्ग्? इट् इम्प्लैस् दट् इट् डस् नाट् मीन् एनिथिङ्ग्. सो अत्र किम् इति प्रश्नस्य न भवति इति तात्पर्यार्थः. सो नः इति अत्र अस्माकम् इत्यर्थे. सो नः हियर् डस् नाट् मीन् न. सो न मीन्स् नो, नः अस्माकम्. सो अस्मद् शब्दस्य षष्ठी विभक्तौ मम, मे, आवयोः नौ, अस्माकं नः रूपद्वयं भवति. सो राज्येन, भोगैः, जीवितेन वा अस्माकं किम् इत्युक्ते अस्माकं किमपि न सिद्ध्यति, प्रयोजनं नास्ति इत्यर्थः. सो नः इत्यस्य कः अर्थः इति केनचित् पृष्टं, तदेव उक्तं. चतुर्थी विभक्तौ अपि अस्ति अस्मभ्यं नः, षष्ठी विभक्तौ अपि भवति. अत्र प्रायः षष्ठ्यर्थः युक्ततरः स्यात्. सो काङ्क्षे इति आत्मनेपदी धातुः वा इति पृष्टम्. आम्, काङ्क्षते आत्मनेपदी धातुः. अत्र आत्मनेपदप्रयोगः, काङ्क्षे इति आत्मनेपदे उत्तमपुरुषे एकवचनरूपम्. अग्रे गच्छामः. सो अर्थः अवगतः, व्याकरणांशाः अपि ज्ञाताः इति भावना. अग्रे गच्छामः. अग्रिमश्लोकः. येषामर्थे काङ्क्षितं नो राज्यं भोगास्सुखानि च, तैमे वस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च.
You are saying something? Yesham, you want me to... No, I think I will not... I'm a little scared of this.
भीतिः किमर्थः? भीत्या किं सिद्ध्यति इति अद्य कुर्मः. किमपि न सिद्ध्यति इत्येव तात्पर्यम्. अस्तु, अन्ये केऽपि वक्तुमिच्छन्ति? राज आचार्य,
can you hear me?
हा, श्रूयते.
गुड् मार्निङ्ग् मेडम्.
हा, वदतु.
पदच्छेदः. येषाम् अर्थे काङ्क्षितं नः राज्यं भोगाः सुखानि च, ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च. सो काङ्क्षि नः एण्ड् राज्यं, देर् इस् अ विसर्ग सन्धि, उकारः एण्ड् देन् गुणः. देन् ते एण्ड् इमे, देर् इस् अ यान्तादेशः सन्धि प्लस् यल् लोपः. Then pranan tyaktva, there is a sandhi. I know the sutra, I don't know what it's called. Nat chavya prashan is a sutra
called sattva sandhi commonly. So
I'm sorry, what is it called?
Sattva sandhi. So it's not one sandhi, so in
multiple sandhis,
multiple steps rules. But commonly referred to as sattva sandhi, where nakarah bhavati, so tasya you get anuswara plus sakara.
Sakara and right.
Atra sandhi
kankshitam, there is a anuswara sandhi, rajyam anuswara sandhi, which is
ime avasthitaha.
Ime avasthita, correct. There is a what is right here? Puru Rupa Sandhi.
Samyak. Ime Avasthitaha, Ime Avasthitaha, Puru Rupa Sandhi.
Yeah.
Atra Vitargasya Lopaha.
Avasthitaha. Correct. Yeah. Okay. I didn't write anything for Samanyartaha. I did Vachi Vishleshanam. Is that okay?
Yeah.
Okay. Amar. So I started with Bhavati. And Kankshitam, Kim Bhavati, Kankshitam Bhavati. किं काङ्क्षितं भोगाः, पुनः किं काङ्क्षितं सुखानि.
वदतु, अहम् अनन्तरं वदामि. सो वदतु,
किं काङ्क्षितं नः राज्यं. देन् द सेकेण्ड् सेण्टेन्स् इस् अवस्थिताः सन्ति, के अवस्थिताः, ते इमे अवस्थिताः, कुत्र अवस्थिताः, युद्धे अवस्थिताः, किं कृत्वा अवस्थिताः, प्राणान् त्यक्त्वा अवस्थिताः, पुनः किं कृत्वा, धनानि त्यक्त्वा.
किं कृत्वा, त्यक्त्वा, किं त्यक्त्वा, प्राणान् धनानि च, एवमपि कर्तुं
शक्यते. देन् ऐ वेण्ट् टु द व्याकरणांश. काङ्क्षितम् अकारान्त नपुंसकलिङ्ग काङ्क्षितशब्दाः द्वितीया एकवचनम्. राज्यम् अकारान्त नपुंसक राज्यशब्दः प्रथमा एकवच प्रथमा साउंड द्वितीय एकवचनम्
उभयमपि प्रथमा एव अस्माभिः इष्टम् इत्यर्थः. सो काङ्क्षितम् इत्यपि प्रथमा विभक्तिः कर्मणि प्रयोगः, अतः राज्यम् प्रथमा विभक्तिः.
I wrote it as prathama, but when I looked at it, it looked wrong.
Atra bhogaah ityatra spashtam jayate. Bhogaah sanchitani.
Bhogaah akaranta pullinga bhoga shabdaha prathama bahuvachanam. Sukhani akaranta napunsaka sukha shabdaha prathama bahuvachanam. Te dakaranta pullinga tat shabdaha prathama bahuvachanam. Ime makaranta pullinga iram shabdaha prathama bahuvachanam. Avasthitaah akaranta pullinga avasthita shabdaha prathama bahuvachanam. Pranan akaranta pullinga prana shabdaha dvitiya bahuvachanam. Dhanani akaranta napunsaka linga dhana shabdaha dvitiya bahuvachanam. Yesham dakaranta pullinga yat shabdaha shashti bahuvachanam. Naha dakaranta pullinga asmat shabdaha shashti bahuvachanam.
Trilinga trishulingesha samanaha asmat shabdaha.
Okay. Arthe akaranta pullinga artha shabdaha saptami ekavachanam. Yudhe akaranta napunsaka linga yuddha shabdaha saptami ekavachanam. Tyaktva avyayam tyaja dhatuhu tva pratyayah. Tya acha is avyayam.
Samyak.
And anvaya rachana naha rajyam bhogaah sukhani cha yesham arthe kankshitam bhavati te ime pranan dhanani cha tyaktva yuddhe avasthitaah santi.
Samyak. Uttamam. Astra vakya dvayam ye te yat shabda tat shabda ihi parasparam annitam. So they are connected with the yat and tat. Okay. So mukhyam vakyam asti avasthitaah santi. Avasthitaah santi tishthanti. Kim krutva tishthanti tyaktva vihaya. Kim vihaya pranan jivitam vihaya dhanani sampat sampadam vihaya tishtanti kutra avasthitaah santi athava kutra tishtanti yuddhe sangrame avasthitaah santi ke avasthitaah santi te ime. It is a very unique usage. Samskrite tada tada bhavati sa eshah ta ete tachabdasya etachabdasya tachabdasya idam shabdasya ete ityeva asthah. Purvam yesham vihashaye aham uktavan mama matulaha shvashuraha pautraha ityadi sarvam kathayati kila. So ta ime te sarvepi svajanaha yuddhe sangrame jivitam aishvaryam sarvam api vihaya tishthanti. So kidrashaha te ime iti chet yesham arthe yesham bandhavanam krute eva kankshitam asmabhihi abhipsitam. So desired kesham kankshitam naha asmakam kim kankshitam rajyam bhumihi bhogaha sukhani. Bhogaha sukhani, very similar. Okay. So sukhani santoshaha bhogaha vastuni yaihi sukham prapyate tani vastuni. So bhogaha sukhani rajyam cha yesham arthe naha kankshitam ta ime pranan dhanani cha tyaktva yuddhe avasthitaah yesham krute vayam etat sarvam icchamaha te eva sarvam api tyaktva atra agataah tarhi asmabhi kimartham yodhavyam iti tatparyam. Vyakaranamshaah uktaah anye prashnaah santi va. Te ta ubhayam samanam va iti atra sandhihi asti. Ta ime ityatra sandhihi asti. Te plus ime. Purvam api kutra api drishtam Bhagavad Gita yameva. Atra adau te ime itisthite adau yantavanta desha sandhihi bhavati. Yantavanta desha sandhihi bhavati che tay ime yatha hare e haraye iti bhavati. एवं ते इमे तयिमे इति भवति. अनन्तरं यकारस्य लोपः भवति तदा च इमे ते इमे इत्येव तत्र शब्दः. अन्ये केऽपि प्रश्नाः सन्ति वा? यथा उक्तं प्राणान् त्यक्त्वा तत्रापि विशिष्टः सन्धिः अस्ति सत्त्वसन्धिः. अन्ये केऽपि प्रश्नाः सन्ति वा? काङ्क्षितम् इति क्तप्रत्ययान्तं नपुंसकलिङ्गं प्रथमाविभक्तिः एकवचनं. सामान्यतः नपुंसकलिङ्गम् एकवचनं दत्तं. राज्यं काङ्क्षितं, भोगाः काङ्क्षिताः, सुखानि काङ्क्षितानि इति अस्माभिः अन्वयकरणे भेदः कल्पनीयः. सो सामान्यतः नपुंसकलिङ्गे एकवचनं दत्तं. सो राज्यं काङ्क्षितं, भोगाः काङ्क्षिताः, सुखानि काङ्क्षितानि. अन्ये प्रश्नाः सन्ति? अग्रे गच्छामः. एतान् नहन्तुम् इच्छामि घ्नतोऽपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतोः किन्नु महीकृते. निर्मला राजशेखर. महालक्ष्मी.
एतान् न हन्तुम् इच्छामि नतः अपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते. वाक्यविश्लेषणं. क्रियापदं विश्रामि. सम्बोधनप्रथमाविभक्ति मधुसूदन. नतः प्रथमाविभक्ति. एतान् द्वितीया विभक्तिः. त्रैलोक्यराज्यस्य महीकृते हेतोः षष्ठी विभक्ति.
महीकृते अस्याः कृते महीकृते हेतोः केन् बि षष्ठी केन् बि पञ्चमी.
महीकृते वाट्
कृते तदेव चिन्त्यमानमस्ति.
ओके. अव्ययम् हन्तुम् अपि न नु. अन्वयः क्रियापदं न इच्छामि. कः न इच्छामि? अहम् अर्जुनः. किं कर्तुं न इच्छामि? हन्तुं मारयितुं. कस्य कृते हन्तुं न इच्छामि? मही कृते, भूम्याः कृते. कस्य हेतोः? त्रैलोक्यराज्यस्य त्रयाणां लोकानां. कान् हन्तुम्? एतान् इमान् अरेनान्. कीदृशः अहम्? नतः अपि प्रियः. अन्वयः
घनतः इत्यस्य कः अर्थः उक्तः?
नियः
मृतः अथवा मारितः. घनतः
तात्पर्यः हे कृष्ण, अहम् एनान् हननं करणाय न स्पृहयामि. म्रिये भवामि चेदपि अहम् एतान् मृतः. मृतः भवामि चेदपि अहम् एतान् प्रहरणं कर्तुं न इच्छामि. त्रयाणां लोकानाम् आधिपत्यं प्राप्येत् चेदपि अहं मारयितुं न इच्छामि. एवं भूम्याः कृते कथं वा एतान् अहम् अन्तुम् इच्छेयम्. ओके.
सम्यक्.
व्याकरणांशाः. एतान्
అకారాంత పుల్లింగ ఏతత్ శబ్ద ద్వితీయ విభక్తి బహువచనం హంతుం అవ్యయం తుమన్ శబ్ద తుమన్నంతం ఇచ్చామి ఇష్ ధాతు పరస్మైపది లట్లక ఉత్తమ పురుష ఏకవచనం నతః ధాతు అహం న జానామి
హన్ ధాతు
దన్
హన్ హన్ హంతి
ఓకే హన్ ధాతు కర్మణి ప్రయోగం ప్రథమావిభక్తి ఏకవచనం మధుసూదన అకారాంత పుల్లింగ సంబోధన ప్రథమావిభక్తి ఏకవచనం అపి అవ్యయం త్రైలోక్య రాజ్యస్య అకారాంత నపుంసకలింగ షష్ఠీ ఏకవచనం హేతోః ఉకారాంత పుల్లింగ షష్ఠీ ఏకవచనం కిం అకారాంత కిం శబ్ద మకారాంత కిం శబ్ద ప్రథమ ఏకవచనం ను అవ్యయం మహీ ఈకారాంత స్త్రీలింగ
పృథక్ నో మహీకృతే ఇది ఏకం పదం సెపరేట్ వర్డ్ మహీకృతే ఇది ప్రాయణ అవ్యయం స్యాత్ కృతే ఇది వదామః తస్య కృతే ఏతస్య కృతే సో కృతే ఐ జస్ట్ చెక్ దిస్ అప్ కింటు కృతే ఇది అవ్యయం స్యాత్ సో మహ్యాః కృతే మహీ కృతే ఇది ఏకం పదం సో భూనిమిత్తం ఇత్యర్థః సో మహీ కృతే ఇది అవ్యయం ఇది చింతయామి యది ఏతదస్తి సూచయామి అగ్రిమవర్గే
ధన్యవాదాలు
సో మధుసూదన హే కృష్ణ న ఇచ్చామి న స్పృహయామి కిం కర్తుం హంతుం మారయితుం కాన్ హంతుం ఏతాన్ ఏతాన్ పురతః స్థితాన్ స్వజనాన్ మారయితుం న ఇచ్చామి కదా కీదృశః సన్నపి హంతుం న ఇచ్చామి ఘ్నతః అపి మారితః అపి సో యది అహం తాన్ న మారయామి తే మాం మారయేయుః కింతు ఘ్నతః అపి మారితః సన్ అపి ఏతాన్ మారయితుం న స్పృహయామి కిం నిమిత్తం హంతుం హేతోః కారణాత్ కస్య హేతు కస్మాత్ హేతోః త్రైలోక్య రాజ్యస్య హేతోః సో భువనత్రయస్యాపి ఆధిపత్యం లభ్యతే చేదపి ఇత్యర్థః సో త్రైలోక్య రాజ్యస్య సో భువనత్రయ ప్రభుత్వస్య కారణాత్ అపి ఇతి వాక్యం సమాప్యతే కిం ను మహీకృతే ఇత్యుక్తే తత్రాపి పూర్వం యథా కిం నో రాజ్యేన ఇతి సో కిం ఇచ్చామి ఇత్యుక్తే న ఇచ్చామి మహీకృతేను సో మహీకృతే భూమ్యాః కారణేన కేవలం భూలోకం ప్రాప్తుం కిం ను ఇచ్చామి ఇతి అన్వయః న ఇచ్చామి ఇత్యేవ ఉత్తరం సో మహీకృతే కిం ను ఇచ్చామి లోకత్రయస్యాపి ప్రాప్తేః నిమిత్తం హంతుం న ఇచ్చామి మహీకృతే కిం ను ఇచ్చామి తత్ర ను ఇతి అవ్యయం విశిష్య అర్థః న భావం సూచయతి సో తావతః త్రైలోక్య రాజ్యస్య కారణాత్ న ఇచ్చామి కిం ను ఇత్యుక్తే కేవలం ఇత్యర్థః తత్ర భాసతే సో కిం ను మహీకృతే కేవలం భూమ్యాః కృతే కిం ఇచ్చామి న ఇచ్చామి ఇత్యర్థః తత్ర ఘ్నతః ఇత్యస్య కః అర్థః ఘ్నతః మారితః సో కిల్డ్ బై సంబడి హన్ ధాతోః కర్మణి ప్రయోగః ఘ్నతః మారితః కిల్డ్ ఇత్యర్థః సో హేతోః ఇతి షష్ఠీ వా పంచమీ వా ఉభయం స్వీకర్తుం శక్యతే hetu shabdasya sarvasu vibhaktishu prayogaha bhavati hetuna hetave so tena karanena tasmat karanat tasya karanasya tasmin karane sarvam api asti kintu samanyatah tritiya athava panchami tena karanena tasmat karanat so tena hetuna tasmat hetoh iti samanyatah tritiya panchami upayujyate षष्ठ्यामपि दोषः नास्ति. अन्य प्रश्नाः सन्ति वा? व्याकरणांशाः ज्ञाताः. सो महीकृते इत्यस्य विषये किञ्चित् दृष्ट्वा वदामि. प्रायेण कृते इति अव्ययेन सह समासः स्यात्. दृष्ट्वा वदामि. हेतोः उकारान्तः पुल्लिङ्गः पञ्चमी अथवा षष्ठी एकवचनम्. घ्नतः अकारान्तः पुल्लिङ्गः प्रथमाविभक्तिः एकवचनम्. हन्तुम् तुमुन्नन्तम् अव्ययम्. अन्य प्रश्नाः सन्ति वा? अग्रिमपाठस्य कृते त्रयः श्लोकाः अनेन समाप्यते. इत्युक्ते शिक्षायां भगवद्गीतायाः प्रथमाध्यायस्य सङ्ग्रहः. सो प्रथमाध्यायस्य अन्तिमः श्लोकः. एवमुक्त्वा अर्जुनस्सङ्ख्ये रथोपस्थ उपाविशत् विसृज्य सशलं चापं शोकसंविग्नमानसः. सो एते त्रयः श्लोकाः सन्ति भगवद्गीतायाः. तदग्रे कानिचन सुभाषितानि पश्यामः. सो दीस् आर् द लास्ट् त्री श्लोकास् आफ् द भगवद्गीता प्रिस्क्रैब्ड् फार् शिक्षा. भगवद्गीतायाः अन्तिमश्लोकाः इति न. सो शिक्षा पाठ्यक्रमे अनेन भगवद्गीतायाः अध्ययनं समाप्यते. अन्ये केऽपि सन्देहाः सन्ति वा? अद्य कांश्चन लौकिकन्यायान् पश्यामः. सो अ फ्यू न्यायास्. सो न्यायः सामान्यतः ईडियम् इत्यादि अन्यासु भाषासु उच्यते. सो कमपि अर्थं बोधयितुं स्वारस्य पूर्णं कथनं भवति. उष्ट्रलघुडन्यायः इत्यस्ति. कश्चित् उष्ट्रः भवति, कुत्रापि दूरं गच्छामः तदा उष्ट्रस्य उपरि आरुह्य गच्छति. तत्र लघुडः नाम एकं काष्ठं ताडयितुं काष्ठं यद्भवति. सो अस्टिक् इस् काल्ड् लघुड. सो सः लघुडः उष्ट्रस्य उपरि एव नीयते. उष्ट्रः एव लघुडं वहति. तेनैव लघुडेन स्वयं सः उष्ट्रः ताड्यते. अतः उष्ट्रलघुडन्यायः, सेल्फ् डिफीटिङ्ग् आर्ग्युमेण्ट् इति वदामः. वयं किमपि कथयामः, तदुपयुज्य अस्माकमुपरि एव अन्ये आक्रमणं कुर्वन्ति चेत् उष्ट्रलघुडन्यायः इति उपयुज्यते. सो अस्माभिः यत् कथ्यते तदेव उपयुज्य अस्माकमेव क्लेशः यदा भवति तदा एषः न्यायः भवति. सो उष्ट्रः यथा लघुडं स्वयं वहति तेनैव ताड्यते, एवं वयमेव किञ्चित् कृत्वा तस्य क्लेशं वयमेव अनुभवामः इत्यर्थः. श्वश्रूनिर्गच्छोक्तिन्यायः इत्यस्ति. एका कथा अस्ति. किञ्चित् गृहं विद्यते. कश्चन भिक्षुकः भिक्षां प्रार्थयमानः तत्र आगच्छति. किमपि भवति भिक्षां देहि इति पृच्छति. तदा गृहस्य स्नुषा, श्वश्रूः स्नुषा, मदर् इन् ला, डाटर् इन् ला ज्ञायते. सो स्नुषा आगच्छति. सा वदति नास्ति, किमपि न दीयते, अग्रे गच्छतु इति प्रेषयति. एतत् सा श्वश्रूः पश्यति. दृष्ट्वा भिक्षुकं पुनः आनयति. सः भिक्षुकः अग्रे गच्छति. एषा आगच्छतु आगच्छतु, भवन्तम् एवं नास्ति इति वक्तुम् अस्याः कः कोऽपि अधिकारः नास्ति. भिक्षुकः सन्तोषेण आगच्छति, अस्तु किमपि लभ्यते वा इति. किन्तु तदा श्वश्रूः कथयति, किमपि नास्ति, अहं वदामि, अग्रे गच्छ इति. अतः श्वश्रू निर्गच्छोक्तिः. स्नुषया उक्तं निराकृत्य भिक्षुकं पुनराहूय सापि न ददाति. किन्तु मया उक्तं भवेत् इति पेट्टि बास् इति कथ्यते सर्वत्र सर्वेषाम् अनुभवे स्यात् तत्र प्रसङ्गेन साधितं किमपि नास्ति किन्तु अधिकारस्य प्रतिष्ठापनमेव मदीयः अधिकारः निराकर्तुमपि ममैव अधिकारः इति यत्र व्यवहारः भवति तत्र अयं न्यायः उपयुज्यते पिष्टपेषणन्यायः बहुधा भवति पिष्टस्य पेषणं पेषणं कुट्टनं यदि किमपि धान्यं भवति तस्य चूर्णीकरणं पेषणम् इति उच्यते सो ग्रैंडिंग इन्टु अ फ्लोर इज कॉल्ड पेषणम् कस्य क्रियते पेषणम् धान्यस्य पेषणम् क्रियते तण्डुलः गोधूमः किञ्चित् धान्यमस्ति चेत् धान्यस्य पेषणम् क्रियते किन्तु पूर्वमेव पिष्टमस्ति सो इट इज ऑलरेडी ग्राउंड इट इज ऑलरेडी फ्लोर सो तस्य पेषणम् तेन किं सिद्ध्यति किमपि न सिद्ध्यति व्यर्थं कार्यं यत् पूर्वमेव साधितं तत्र पुनः पुनः वयं प्रयत्नं कुर्मः चेत् पिष्टपेषणं पिष्टस्यैव पुनः पेषणं प्रयोजनाय न भवति समाने अर्थे चर्वितचर्वणम् इत्यपि उच्यते चर्वणं सो च्यूयिङ्ग् सो भुक्तः आहारः तस्य चर्वणं क्रियते किन्तु चर्वितस्य पुनः पुनः चर्वणं किमर्थं प्रयोजनं नास्ति इति उभयमपि साधितस्य कार्यस्य पुनः पुनः करणं प्रयोजनं विना इत्यर्थे उपयुज्यते पिष्टपेषणं चर्वितचर्वणम् अन्धगजन्यायः एषः अपि प्रसिद्धः चत्वारः अन्धाः भवन्ति जन्मान्धाः गजः कथं भवति इति न जानन्ति कश्चित् गजः भवति तं स्पृष्ट्वा कश्चित् पादं स्पृशति ओहो गजः स्तम्भः इव अस्ति इति वदति अन्यः कश्चित् तस्य पुच्छं स्पृशति पुच्छं स्पृष्ट्वा ओ रज्जुः इव अस्ति गजः इति वदति अन्यः कश्चित् कर्णं स्पृशति कर्णं स्पृष्ट्वा गजः शूर्पः इव अस्ति इति वदति सो एतत् किमपि सम्पूर्णं ज्ञानं न पाक्षिकं ज्ञानं सो अन्धाः गजस्य विविधान् भागान् स्पृष्ट्वा भिन्नतया अवगच्छन्ति कस्यापि गजस्य सम्पूर्णं ज्ञानं न भवति सो कोऽपि अन्धः पूर्णं ज्ञानं न प्राप्तवान् केवलम् एकं मुखं दृष्ट्वा एकं भागं स्पृष्ट्वा तस्य ज्ञानमेव प्राप्तवान् सो एतदुच्यते काम्प्रहेन्सिव् पूर्णं ज्ञानं यद्भवति अथवा न्यारो वयं बहुधा समस्यानां विषये एतदुच्यते समस्यायाः सर्वाणि मुखानि ज्ञातव्यानि केवलम् एकया दृष्ट्या वयं पश्यामः चेत् पूर्णं ज्ञानं न भवति इत्यर्थः सो केनचित् अत्र उच्यते पिष्टपेषणं सो किल्लिङ्ग् अ डेड् स्नेक् इति सत्यं स एव अर्थः यत् साधितं तत्र पुनः अरुन्धतीप्रदर्शनन्यायः सो तत् अरुन्धतीदर्शनं विवाह समये क्रियते अरुन्धती वस्तुतः बहु अत्यन्तं लघिष्ठं नक्षत्रं सो साक्षात् अरुन्धत्याः दर्शनं न भवति तत्तु सप्तर्षिमण्डले वसिष्ठनक्षत्रमस्ति वसिष्ठनक्षत्रस्य बहु समीपे भवति अरुन्धतीनक्षत्रं सो कथं प्रदर्श्यते आदौ वसिष्ठस्य नक्षत्रस्य प्रदर्शनं कृत्वा तस्य समीपे या अस्ति सा अरुन्धती इति सो विशिष्य पाठनवेलायां नोन् टु अन्नोन् यद् ज्ञायते आदौ सुलभतया अवगम्यते तस्य पाठनं कृत्वा ततः अज्ञातस्य पाठनम् अथवा प्रदर्शनं करणीयं साक्षात् बहु क्लिष्टस्य पाठनं क्रियते चेत् अवगमनं क्लेशाय भवति तत्र अरुन्धती प्रदर्शनन्यायः साक्षात् अरुन्धत्याः प्रदर्शनं न क्रियते अन्यत् ज्ञातम् अथवा सुलभतरम् आलम्ब्य अरुन्धत्याः प्रदर्शनं क्रियते इत्यर्थः अन्तिमः गुड्डरिका प्रवाहन्यायः प्रसिद्धः शब्दः न गुड्डरिका इति बहु विरलः शब्दः मेषाणां यूथं फ्लॉक ऑफ शीप इत्यर्थः तद् ज्ञायते चेत् न्यायस्य अर्थः ज्ञायते यत्र एकः मेषः गर्ते पतति सर्वेपि मेषाः तमनुसृत्य गर्ते पतन्ति सो पृथक् चिन्तनं न भवति फ्लॉक मेंटालिटी अथवा अंधानुकरणम् इति यदुच्यते तदेव अनेन न्यायेन उच्यते सो एकः करोति गतानुगतिको लोकः न लोकः पारमार्थिकः एकः करोति इति कारणेन सर्वे कुर्वन्ति तत्र वस्तुतः किं प्रयोजनम् अथवा तेन किं सिद्ध्यति इति न चिन्तयन्ति इत्यर्थः अत्र अलम् सो अद्य अनुनासिकसन्धिः ज्ञातः तस्य अभ्यासः अपि कृतः लौकिकन्यायाः केचन दृष्टाः अग्रिमवर्गे अग्रे पश्यामः अत्र कथयामः गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो प्रश्नाः सन्ति चेत् पृच्छन्तु राजेश्वरी राजेश्वरी अपि प्रश्नः अस्ति वा यु हेव् टु अन्म्यूट् युवर् सेल्फ् यु हेव् अ क्वेश्चन् रामानुजन्
नमस्ते क्वेश्चन्स् ऑन द सेकंड श्लोक एषा मर्ते कांक्षितं नः I was wondering for a while how is it nah you also I mean when you explained you said asmabhi the tritiya vibhakti
lokahitam mama karaniyam
oh
maya karaniyam mama karaniyam tritiya shashti ubhayam bhavati hridantana prayoga
thank you I vaguely remembered from the kadanta class but then I forgot And then there's one other question. You said mama gets changed to mat. Is there a rule? Because I also see it in Bhagavad Gita, mat paraha, meaning mama paraha.
Uttara pade parataha mama ityasya sthane mat iti adeshaha bhavati. Madgriham, putraha, sarvatra bhavati.
Okay.
मम इत्यस्य स्थाने मत् इति आदेशः भवति षष्ठी समासे तत्पुरुषसमासे
ओके ओके थैंक यू
अस्तु तर्हि अत्र समापयामः अग्रिम सप्ताहे पश्यामः धन्यवादाः